प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। द्वाविंशतितमं रूसभारतयोः वार्षिक सम्मेलनम् अग्रिमे सप्ताहे भविता, यत्र रक्षा, व्यापार, विनिवेश, ऊर्जा, शिक्षा चेति मुख्यबिन्दवः भविष्यन्ति। भारतेन निवर्तमानसत्रे रक्षोत्पादनक्षेत्रे उन्नततमा उन्नतिः समुट्टंकितास्ति। प्रधानमन्त्री नरेन्द्रमोदी च उक्तवान् यत् भारतदेशः रक्षोत्पादनक्षेत्रे नेतृत्वाय बद्धपरिकरोऽस्तीति। अस्य वर्षस्य नीट इति चिकित्सीयक्षेत्रस्य स्नातकोत्तरप्रवेशपरीक्षा अग्रिममासस्य एकादशदिनांके भविष्यति। ब्रिटेनदेशस्य प्रधानमन्त्री ऋषि सुनकः सामान्य संसदीय निर्वाचने पराभवानन्तरं प्रधानमन्त्रिपदात् त्यागपत्रम् अयच्छत्। अपि च भारतीय महिला क्रिकेट दलं दक्षिण अफ्रीका देशीयेन दलेन सह 20-प्रतिविंशतिः प्रवर्गस्य क्रिकेट क्रीडायाः श्रृंखलात्रयस्य अन्ताराष्ट्रियः प्रथमसंघर्षः अद्य क्रीडति। अथ वार्ताः विस्तरेण। द्वाविंशतितमं भारत रूस वार्षिक शिखर सम्मेलने प्रमुख चर्चा बिन्दवः रक्षा, व्यापार, निवेश, ऊर्जा, शिक्षा, विज्ञानं, प्रौद्योगिकी, संस्कृतिः च केन्द्रीभूताः भविष्यन्ति। अद्य नवदिल्ल्यां वार्ताहर सम्मेलने विदेश सचिवः विनय मोहन क्वात्रा इत्यनेन इदम् उक्तम्। अस्मिन् मासे अष्टमदिनांकात् दशमदिनांकपर्यन्तं रूस ऑस्ट्रिया देशयोः प्रधानमन्त्रिणः आधिकारिकयात्रायाः विषये श्रीक्वात्राः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी, रूसस्य राष्ट्रपतिः व्लादिमीर पुतिनश्च द्वयोः देशयोः बहुपक्षीय सम्बन्धानां समीक्षां करिष्यन्ति। सः अवदत् यत् तौ परस्परहितस्य समकालीनक्षेत्रीय वैश्विक विषयेषु च विचाराणाम् आदानप्रदानं करिष्यतः। भारतदेशेन निवर्तमानसत्रे रक्षोत्पादनमूल्येषु अभूतपूर्वा वृद्धिः समुट्टंकितास्ति। वर्षेऽस्मिन् एषा वृद्धिः प्रायशः 900-8,26,00,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000, षोडशप्रतिशतम् अधिका अस्ति। रक्षामन्त्रिणा राजनाथसिंहेन सामाजिक प्रसारतन्त्रे प्रसारिते सन्देशे उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे मेक इन इण्डिया इति कार्यक्रमः निरन्तरतया नवकीर्तिमत् स्थापयन्नस्ति। श्रीसिंहेन रक्षा सार्वजनिक क्षेत्रस्योपक्रमाः रक्षावस्तु विनिर्माणे संलग्नानि अन्योद्यमान्यपि प्रशंसितानि। विशेष्यास्य प्रशंसां कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी अपि अवदत् यत् उपलब्धिरेषा उत्साहजनिनीति अस्ति। सः सर्वेभ्यः योगदातृभ्यः वर्धापनानि अयच्छत्। तेनोक्तं यत् प्रशासनं क्षमतानां इतोप्यधिकवर्धनाय प्रतिबद्धमस्तीति। केन्द्रीयमन्त्री अश्विनी वैष्णवः अद्य उक्तवान् यत् भारतीय रेलविभागः वर्षेऽस्मिन् सार्धद्विसहस्रपरिमितानां रेलयानप्रभागानां विनिर्माणं विधास्यति। तदनन्तरञ्च इतोऽपि दशसहस्रप्रभागानां निर्माणं भविष्यति। श्रीवैष्णवः भारतीय रेलविभागस्य गतिशक्ति विश्वविद्यालयेन सह अग्रण्याः वाणिज्यिक विभाग विमाननिर्मात्री एयरबस इत्यस्याः मध्ये सन्धिपत्रस्योपरि हस्ताक्षरकाले भाषमाणः आसीत्। ब्रिटेनदेशस्य संसदीय निर्वाचने लेबर पार्टीति दलस्य विजयः सुनिश्चिताम् एति। दलस्यास्य नेता कीर स्टार्मरः निवर्तमान प्रधानमन्त्रिणः ऋषि सुनकस्य कंजर्वेटिव पार्टीति दलं पराभूय अग्रिमः प्रधानमन्त्री भविष्यतीति निश्चप्रचमिति मन्यते। एकदशकं यावत् विपक्षे स्थित्वा लेबर पार्टीति दलं सत्तायाम् आगच्छदस्ति। साम्प्रतं यावत् प्राप्तसूचनानुसारं सार्धषट्शतम् आसन्देषु विजेतृदलेन षड्विंशत्यधिकशतक्षेत्राणि सन्ति विजितानि। एकषष्टिवर्षीयेन स्टार्मर इत्यनेन स्वकीये विजयभाषणे प्रोक्तं यत् जनैः परिवर्तनाय मतदानं कृतम्, परिवर्तनञ्च समारब्धमिति। तत्रैव ऋषिसुनकेनापि निर्वाचने पराजयः स्वीकृतः। स्टॉर्मर इत्यस्मै च वर्धापनान्यपि प्रदत्तानि। सम्प्रत्येव प्राप्तसूचनानुसारं ब्रिटेन देशस्य प्रधानमन्त्रिणा ऋषि सुनकेन प्रधानमन्त्रिपदात् त्यागपत्रमपि दत्तम्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी ब्रिटेन संसदीय निर्वाचने विजेत्रे कीर स्टॉर्मर इत्यस्मै वर्धापनानि अयच्छन् उक्तवान् यत् सकारात्मकगत्या अग्रे वर्धनाय भारत ब्रिटेनयोर्मध्ये सहयोग पुरस्सरं कार्याचरणाय च वयं सन्नद्धाः स्मः इति। तेन ऋषि सुनकं प्रत्यपि आभारभारभरितभावाः सन्ति सम्प्रेषिताः। चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य नीट पीजी इति प्रवेशपरीक्षा आगामिमासस्य एकादशदिनांके तथा च कालद्विधा विभज्य भविष्यति। राष्ट्रिय आयुर्विज्ञान परीक्षामण्डलेन अद्य परीक्षायाः संशोधिता समयसारिणी प्रसारितास्ति। गतमासे परीक्षायाः निर्धारितदिनात् एकदिनपूर्वमेव परीक्षा स्थगिता जाता आसीत्। कतिपय प्रतियोगिपरीक्षाणां सत्यनिष्ठायाः आरोपानन्तरं एषः निर्णयः कृतोऽस्ति। जम्मूकश्मीरे वार्षिक अमरनाथयात्रा सुचारुतया प्रचलति। ह्यः दर्शनस्य षष्ठम दिवसे श्री अमरनाथ भगवतः पवित्रगुहायाम् अष्टसप्तत्यधिक नवशतोत्तर चतुर्विंशतिः सहस्रं यावत् तीर्थयात्रिणः दर्शनं कृतवन्तः। एतेन सहैव जूनमासस्य ऊनत्रिंशद्दिनांकतः यात्रायाः आरम्भात् अद्यावधिपर्यन्तं प्रायः त्रिंशत्सहस्रोत्तरैकलक्षाधिकतीर्थयात्रिणः देशस्य विभिन्नभागेभ्यः पवित्रगुहायां दर्शनार्थम् आगतवन्तः। पवित्रगुहाक्षेत्रे तथा यात्रामार्गेषु आंशिकरूपेण मेघाच्छादिताः सन्ति, तथापि यात्रा सामान्यतया प्रचलति। उदग्रविमानसेवापि दिवा सुचारुरीत्या प्रचलति। ये तीर्थयात्रिणः ह्यः नुनवान पहलगाम बाल्टाल सोना मार्गयोः आधारशिविरेषु प्रतिवेदनं कृतवन्तः, ये च चन्दनवाड़ी पंचतरणी नगरयोः रात्रौ स्थगिताः आसन्, ते अद्य प्रातः श्री अमरनाथ पवित्रगुहायां प्राकृतिकरूपेण निर्मितस्य हिमशिवलिंगस्य दर्शनार्थं प्रस्थिताः। कथित मद्यनीति प्रवञ्जना प्रकरणे दिल्ल्याः मुख्यमन्त्रिणा अरविन्द केजरीवालेन प्रदत्तायाः मुक्तियाचनायाः विषये दिल्ली उच्चन्यायालयेन अद्य सीबीआई इत्यस्य कृते संचेतना प्रसारितास्ति। न्यायमूर्तेः नीना बंसल कृष्णायाः पीठेन केन्द्रीयान्वेषणाभिकरणं प्रतिक्रियां दद्यात् इति उक्तम्। अस्मिन् विषये पुनः वादश्रवणं जुलाई मासस्य सप्तदशदिनांके भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना ओलम्पिकाख्ये क्रीडाकुम्भे भागग्रहणाय पेरिसनगरं गन्त्रा दलेन सह मेलनं कुर्वता क्रीडकैः सह संलापे विश्वासो व्यक्तीकृतः यत् भारतीयक्रीडकाः एतासु क्रीडासु राष्ट्रं गौरवान्वितं करिष्यन्तीति। तेनोक्तं यत् अस्मत्क्रीडकाः अवसरेऽस्मिन्नपि प्राक्तनं कीर्तिमद्ध्वस्तीकरिष्यन्ति। तेनोक्तं यत् क्रीडावसरे क्रीडकानाम् उत्साहवर्धनाय पेरिसनगरे भारतीयसमुदायस्य सक्रियतायाः प्रयासाः सर्वकारेण सन्ति विहिताः। भारतीय महिला क्रिकेट दलं दक्षिण अफ्रीका देशीयेन दलेन सह विंशतिं प्रतिविंशतिः प्रवर्गस्य क्रिकेट क्रीडायाः श्रृंखलात्रयस्य अन्ताराष्ट्रियः प्रथमसंघर्षः अद्य क्रीडति। संघर्षोऽयं संध्यायां सप्तवादनतः चेन्नई नगरस्य एम ए चिदम्बरम् इति क्रीडांगणे क्रीडिष्यते। ध्यातव्यमस्ति यत् हरमनप्रीत कौर इत्यस्याः नेतृत्वे भारतीयदलेन एकदिवसीयस्पर्धात्रयः पूर्णतः विजित्य एकैव निकषस्पर्धापि दशक्रीडकानाम् अक्षते सति विजितासीत् इति वार्ताः।